ओम आकाशवाणी वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी आदौ मुख्य वार्ताः लोकसभा निर्वाचनस्य पञ्चम चरणाय प्रचाराभियानम् अद्य अवसीयते प्रधानमन्त्री भाजपा दलस्य वरिष्ठः नेता नरेन्द्र मोदी अथ च कांग्रेस दलस्य पूर्वाध्यक्ष राहुल गांधी अद्य राजधान्यां नवदिल्ल्यां लोकसभा निर्वाचनाय प्रचारम् आरब्धवन्तौ जम्मू कश्मीरस्य बारामूला जनपदे 18,000+ कश्मीरी पण्डित प्रवासिनः मतदातारः निज मताधिकारस्य प्रयोगं कर्तुं पात्रत्वं सन्धन्ते स्वाति मालीवालेन सह जातस्य कथित दुर्व्यवहारस्य प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निजी सचिवः विभव कुमारः दिल्ली आरक्षिबलेन निगडितः भारतेन अद्य किर्गिस्तानस्य बिश्केक नगरे भारतीय विद्यार्थिभ्य गृहेषु एव स्थातुं परामर्शः प्रदत्तः अपि च आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य सायं रॉयल चैलेंजर्स बेंगलुरु दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरिष्यति लोकसभा निर्वाचनस्य पञ्चम चरणाय प्रचाराभियानम् अद्य अवसीयते पञ्चम चरणे उत्तरप्रदेशस्य 14 आसनेभ्यः महाराष्ट्रस्य 13 आसनेभ्यः पश्चिम बंगालस्य 7 आसनेभ्यः बिहार ओडिशा राज्ययोः प्रत्येकं 5 आसनेभ्यः झारखण्डस्य आसनत्रयेभ्यः जम्मू कश्मीर लद्दाखयोः च प्रत्येकं एकैकाय लोकसभासनाय सोमवासरे मतदानं भविष्यति प्रधानमन्त्री भाजपा दलस्य वरिष्ठो नेता नरेन्द्र मोदी अथ च कांग्रेस दलस्य पूर्वाध्यक्षः राहुल गांधी अद्य राजधान्यां नवदिल्ल्यां लोकसभा निर्वाचनाय प्रचारम् आरब्धवन्तौ प्रधानमन्त्री अद्य हरियाणायाः अम्बालायां सोनीपते च पथप्रदर्शनं करिष्यति पूर्वकेन्द्रीयमन्त्रिणः दिवंगतस्य रतनलाल कटारिया इत्येतस्य भार्या श्रीमती बंटो कटारिया अम्बाला लोकसभासनात् मोहनलाल बडोली च सोनीपत लोकसभासनात् भाजपा दलस्य प्रत्याशिनौ वर्तेते अवधेयं यत् दिल्ल्यां हरियाणायां च षष्ठे चरणे मे मासस्य 25 दिने मतदानानि भविष्यति जम्मू कश्मीरे पञ्चम चरण मतदानेन सह बारामूला कुपवाड़ा लोकसभा निर्वाचन क्षेत्रे संपूर्ण क्षेत्रे 26,000 पंजीकृतेषु कश्मीरी पण्डित मतदातृषु 18,000+ प्रवासिनः मतदातारः निज मताधिकारस्य प्रयोगं कर्तुं पात्रत्वं सन्धन्ते षड् राज्यानां केन्द्रशासित प्रदेशद्वयस्य च 49 लोकसभासनेषु सोमवासरे मतदानं भविष्यति निर्वाचन अधिकारिभिः प्रवासीजनेभ्यः 39 मतदानानि केन्द्राणि विनिर्मितानि सन्ति येषु उधमपुरे एकं जम्मूनगरे 24 नवदिल्ल्यां 4 मतदानकेन्द्राणि सन्ति एतदतिरिच्य कश्मीरी प्रवासी मतदातृभ्यः प्रातः 6 आरभ्य सायं 6 यावत् यातायात सौविध्यम् अपि उपलब्धो भविष्यति राज्यसभाया सदस्यया स्वाति मालीवालेन सह जातस्य कथित दुर्व्यवहारस्य प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निजी सचिवः विभव कुमारः दिल्ली आरक्षिबलेन निगडितः अस्मिन् प्रकरणे पूर्वमेव प्राथमिकी पञ्जीकृता आसीत् विभव कुमारः अद्य दिल्लीस्थे सिविल लाइन्स आरक्षिस्थात्रे नीतः प्रत्युत्तरे विभव कुमारेण अपि स्वाति मालीवालं विरुध्य प्राथमिकी पञ्जीकृता संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति भारतेन अद्य किर्गिस्तानस्य बिश्केक नगरे भारतीय विद्यार्थिभ्यः गृहेषु एव स्थातुं परामर्शः प्रदत्तः विदेशी विद्यार्थिनः आलक्ष्य हिंसायाः प्रतिवेदनानन्तरम् अयं परामर्शः प्रसारितः बिश्केक इत्यत्र भारतीय विद्यार्थिनां सुरक्षां सुनिश्चेय विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अवोचत् यत् स्थितेः निरीक्षणं विधीयते सम्प्रति तत्रत्य स्थितिः नियन्त्रणे वर्तते श्रीजयशंकरेण विद्यार्थिनः दूतावासेन सह सम्पर्के स्थातुं परामृष्टाः किर्गिस्ताने भारतीय दूतावासेन विद्यार्थिभ्य आपत्कालिक दूरभाष संकेतः 0555571004 इति प्रख्यापितः। किर्गिस्तानस्य बिश्केक स्थले विगतेभ्यः कतिपय दिनेभ्यः हिंस घटनाः जायन्ते, यासु पाकिस्तानस्य पञ्च विद्यार्थिनः मृत्युम् उपगताः। श्रीलंकायां सीता एलिया अर्थात अशोक वाटिकायां सीता अम्मन मन्दिरे कुम्भाभिषेकम् इति पर्वणः सज्जा सजवं विधीयते। अयम् अभिषेकः रविवासरे भविष्यति। अद्य प्रातः कोलंबो नगरस्य मयूरपति श्रीभद्रकाली अम्माम कोविल इति स्थलात् एका रथयात्रा प्रस्थिता। इयं रथयात्रा अशोकवाटिकायां सीतामन्दिरं यावत् गच्छति। श्रीलंकायाः वरिष्ठनेतृभिः सहैव रामलला मन्दिर, विश्वहिन्दुपरिषद, विश्वरामायण सम्मेलनस्य च प्रतिनिधीनाम् उपस्थितौ रथयात्रा प्रयाता। अत्रावसरे भारत नेपालयोः नैकेभ्यः क्षेत्रेभ्यः श्रद्धालवः कोलंबो नगरं यान्ति। एतदतिरिच्य अभिषेक समारोहाय अयोध्यायाः सरयूजलस्य पञ्च कलशाः समानीताः। विदेश सचिवः विनय क्वात्रा विदेश राष्ट्रमण्डल विकास कार्यालये ब्रिटेनस्य स्थायी उपमन्त्रिणः सर फिलिप बॉटन इत्यनेन सह मेलनम् अकरोत्। गुरुवासरे शुक्रवासरे च श्रीक्वात्रा ब्रिटेनस्य द्विदिवसीय यात्रारतः अवर्तत। उभाभ्यां पक्षाभ्यां द्विपक्षीय सम्बन्धानां परस्परहित सम्बद्ध क्षेत्रीय वैश्विक प्रकरणेषु चर्चा कृता। अत्रावसरे तैत्रिंशदुत्तर द्विसहस्रवर्षं यावत् कार्ययोजना अपि समीक्षिता। पक्षद्वयेन व्यापारार्थिक रक्षा सुरक्षा विज्ञान प्रौद्योगिकी जलवायु परिवर्तन क्षेत्रेषु द्विपक्षीय सहयोग संवर्धने चर्चा कृता। विदेश कार्यालय परामर्शस्य आगामिनम् उपवेशनम् अग्रिमे वर्षे नवदिल्ल्याम् आयोजयिष्यते। भारतस्य एकेन उच्चस्तरीय प्रतिनिधिमण्डलेन महत्वाकांक्षी भारत मध्य पूर्व यूरोपस्य आर्थिक समवायं विकसितुम् आबुधाबी नगरे संयुक्त अरब अमीरातस्य अधिकारिभिः सह प्रथमचरणीया वार्ता विहिता। उभौ देशौ इमां परियोजनामालक्ष्य मासपूर्व सन्धिपत्रत्रयो हस्ताक्षराणि कृतवन्तौ। ऋतुविज्ञान विभागेन आगामिषु दिवसेषु राजस्थान पंजाब हरियाणा दिल्ली चेति राज्येषु कतिपय क्षेत्रेषु प्रबल आतप स्थितेः अनुमानः प्रकटितः। सममेव विभागेन उक्तं यत् देशस्य पूर्वमध्यभागेषु अपि अद्यारभ्य एतादृशैव स्थितिः सम्भाव्यते। ऋतुविज्ञान विभागेन अनुमानितं यत् अस्य मासस्य त्रयोविंशतिः दिनांकं यावत् देशस्य दक्षिणभागेषु कुत्रचित् तीव्रवर्षायाः सम्भावना विद्यते। अपि च ऋतुविज्ञान विभागेन मंगलवासरं यावत् तमिलनाडु पुद्दुचेरी कराईकल केरल माहे तटीयांध्र प्रदेश रायल सीमा कर्नाटके चेति केषुचित् स्थलेषु प्रबलवृष्टेः सम्भावना प्रकटिता। अपरत्र पूर्वोत्तर भारतस्य अरुणाचल सिक्किम असम नागालैंड मणिपुर मेघालय राज्येषु सोमवासरं यावत् कतिपय स्थलेषु प्रबलवृष्टेः सम्भावना प्रकटिता अस्ति। बैंकॉक नगरे प्रवर्तमानायां थाईलैंड ओपन बैडमिंटन इति स्पर्धायां अद्य पुरुष युगलवर्गे उपान्त्यचक्रे चिराग शेट्टी सात्विक साईराज रंकीरेड्डी च कोरियायाः मिंग चेलू तांग काई वेई इत्यनयोः युगलं सम्मुखीकरिष्यतः। महिला युगलवर्गे उपान्त्यचक्रे अद्य अश्विनी पोनप्पा तनीषा क्रास्टो इत्यनयोः युगलं थाईलैंडस्य जोंग कोलफान कीटी थराकुल रविंडा प्राजोंग जई इत्यनयोः युगलं सम्मुखीकरिष्यतः। आईपीएल क्रिकेट स्पर्धा मालिकायां अद्य रॉयल चैलेंजर्स बेंगलुरु दलं चेन्नई सुपरकिंग्स दलं सम्मुखीकरिष्यति। एषा स्पर्धा सायं सार्धसप्तवादनात् आरप्स्यते। गतरात्रौ क्रीडितायां स्पर्धायां लखनऊ सुपर जायंट्स दलेन मुंबई इंडियंस दलं अष्टादश धावनांकैः पराजितम्। मुख्यवार्ताः पुनरेकवारम्। लोकसभा निर्वाचनस्य पञ्चमचरणाय प्रचाराभियानम् अद्य अवसीयते। प्रधानमंत्री भाजपादलस्य वरिष्ठः नेता नरेन्द्र मोदी अथ च कांग्रेसदलस्य पूर्वाध्यक्षः राहुल गांधी अद्य राजधान्यां नवदिल्ल्यां लोकसभा निर्वाचनाय प्रचारम् आरब्धवन्तौ। जम्मूकश्मीरस्य बारामुला जनपदे 18,000+ कश्मीरी पण्डित प्रवासिनां मतदातारः निज मताधिकारस्य प्रयोगं कर्तुं पात्रत्वं सन्धन्ते। आईपीएल क्रिकेट स्पर्धा मालिकायां अद्य सायं रॉयल चैलेंजर्स बेंगलुरु दलं चेन्नई सुपरकिंग्स दलं सम्मुखीकरिष्यति।